सुभाषितम् अपि पठति वा?
सुखस्य दुःखस्य न कोऽपि दाता, परो दाता तिथि कुबुद्धिरेषा, अहं करोमिति वृत्तोऽभिमानः, स्वकर्म सूत्राग्रितो सूत्राग्रतितो हि लोकः.
बहु उत्तमं महोदय. पदच्छेदम् अपि कृपया पठति वा?
सुखं कम्फर्ट्, दुःखं सेड्नेस्, कोऽपि नो वन्, दाता गिवर्, परो अदर्, ददाति गिव्स् इति दिस्, कुबुद्धि राङ्ग् पर्सेप्शन्, करोमि डु वृथा पायिण्ट्लेस्, अभिमानः प्रैड्, स्वकर्म ओन् एक्षन्स्, सूत्र मेनर् आफ् डूयिङ्ग्, ग्रथितो अब्सेस्ड् हि बिकास्, लोकः पीपल् आफ् द वर्ल्ड्.
उत्तमम्. अर्थं वक्तुं प्रयत्नं करोति वा?
बिकास् आफ् पीपल् आफ् द वर्ल्ड्, सुखं दुःखस्य न कोऽपि दाता. I think nobody, sukham and dukham, the sadness and the comfort, is no one gives in this world. It is a wrong perception.
Uttamam.
Therefore, and it all, aham karomiti, all do's are pointless because of the pride and our own actions. We are perceiving these things. That's all I can say.
Uttamam, Mahodaya. Bahu uttamam. So it says in the explanation that people are obsessed with the idea that whatever they do is the correct way of doing. So when they think that whatever pleasure or whatever good or bad thing that comes from that action, they think, okay, so because I asked for it, it's my fault that this is happening to me. And then they forget that they have no control over these outcomes because it's all results of karma. Like that. It's just a pretty long Subhashita. Okay, so does anyone have any questions? Okay. Astu. Adya chatutam dinam asti. Adyatana patyakramaha. Pratham gruhapatam karishamaha. Tadanantaram punasmaranam. Tumunantam, tvantam, lyavantam iti kinchit. पुनस्मरणं करिष्यामः वर्क्शीट्स् सन्ति, तदनन्तरं विभक्तिवल्लरी सरामः. ओके, सो प्रथमं एकं प्रश्नमस्ति, किमर्थं त्वा ल्यप् तुमुन् इति कठिनम् अस्ति इति कोऽपि वक्तुम् इच्छति वा? सो वाट् स्पेसिफिक्लि ओर् वाय् इस् Tvantam, Lebantam, and Tumanantam difficult? I mean, not to attack or anything. I just want to know how I can make it better.
Because we don't know whether the letters or the letters before that is Upasarga or not. For example, Vikshipta, we do not know whether V is there or Vikshipta is a correct word. So we are not able to find out the splitting of the word so that we can apply Tvantam or Lebantam. That's where we are finding it difficult. At least I am finding it difficult.
Okay. Anyone else?
I think it's just we need to practice more to get all these rupams.
Okay.
Actually, when to use this is a problem. Katva, Tuman, these three. Got
okay. Okay, that's okay. We'll just in the worksheet they have sentences, and then it also has the homework. So hopefully you get a better idea. So this is the worksheet, and then first in the worksheet they cover tvantam and lyabantam. Okay, so there's one example here. Pratham udaharanam tatra asti ekam purushah vivaranam kartum icchativa. Can one person explain the first sentence? Read it and then explain. पठित्वा विवरणं करोतु.
अहं प्रयत्नं करोमि.
अस्तु, करोतु महोदय. एम् महोदय.
बालकः स्नाति. दि बाय् इस् टेकिङ्ग् बात्. बालकः अर्चति. दि बाय् इस् वर्षिपिङ्ग्. सो टु जायिन् दीस् टु सेण्टेन्सेस् टुगेदर् यू स्नात्वा, दट् इस् आफ्टर् दि बात् दि बाय् इस् worshipping. So that after is coming because of tvantam. You want me to explain second one also?
Astu karoti.
Balakah vidyalayam gachati. That is, the boy is going to the school. Then balakah patati. He is reading. So to join together, after going to the school, he is reading. That is why it is called balakah vidyalayam gatva patati. In these both these cases, we know that patati does not have any prefix, so it is easy to assume that is tvantam. But otherwise, then it becomes, we get a doubt whether the patati pa is the,
it is not
the prefix or not. No, I'm just giving a silly example.
Here it is
that patati. No, patati I know. But in some other words, we do not know. For example, I'm saying, not correctly, whether patati pa is the upasarga, then it has to be lyabantam. Otherwise, it will be tvantam. So that confusion is there for some of the words, not all the words.
Bhagini, if I mix it, the first figure and the second, first, second and the third, balakaha snati, then archati, then also I have to add the third sentence, balaka vidyalam gachati. So in that case,
I didn't understand. No,
suppose after taking bath, he will do archan, that is puja, then he will go to vidyalayam. If I want to combine these three, then where to apply this katva? At the second sentence or the third sentence?
Okay, you can say balakah snatva, and then I think archati. I'm not sure if there's a...
If I say like this...
Okay, then snatva, architva, vidyalayam gachati.
If I say like this, balakah snati, archati, and then I can say vidyalayam gatva, like
no.
Okay, so that
and
means
vanta is the first word, not the second, last word. Last
sentence, no, katva you have to use.
No. First sentence only. That, after okay. Do this thing.
What does gatva mean, Mahodaya? Narasimha Mahodaya, what does gatva mean?
Gatva means gone, no? Went.
After going.
After going.
After having gone.
After having?
After he goes, that means after he goes to the school, he takes a bath and he does...
No. Before, yes, okay.
So, yes, that's why it matters which one you use the twa on.
first balaka does snati, okay,
mm-hmm.
then balaka archati, then balaka vidyalayam gacchati. So
correct.
So if I use
snatva architva school vidyalayam gacchati.
Okay, if I want to use gatva here instead of snatva,
after gatva you should do something, then only you can use gatva.
Then gatva, yeah, patati, so you can say gatva patati.
Uh-huh. Okay,
having gone to school you'll read.
Okay. Oh, after going. Okay. Got it.
Okay. Okay, Narasimha Mahodaya, antimam vakyam api vivaranam karoti va?
Balakam kridati.
Balakaha?
Balakaha kridati. Balakaha kadati. So, balakaha kridatva kadati.
Uttamam. Okay, balakaha kaditva kadati kridati asti chet?
Boy plays and then eats.
Okay, parantu balakaha khaditva kridati.
So, boy eats and then plays.
Uttamam, uttamam. Okay. Okay. Okay, kechana vakyani santi karishyamaha. Okay, aham dasha वाक्यानि अस्ति झटिति करिष्यामः. ओके, प्रथमा भगिनी द्वितीयं करोति वा अथवा प्रथमं वाक्यं पठित्वा द्वितीयं करोति वा?
अहं द्वितीयं करोमि.
अस्तु.
जननी स्नाति पाकं करोति. जननी स्नात्वा पाकं करोति.
अर्थमपि वदतु.
Yeah. After having bath, the mother cooks food.
Uttama. Chitra Bhagini?
Janakaha karyalayam gacchati karyam karoti. Janakaha karyalayam gatva karyam karoti. Having gone to the office, father works.
Uttama. Sachin Mahodaya?
छात्रः पाठं पठति निद्राति. छात्रः पाठं पठित्वा निद्राति.
उत्तमम्. मोहन महोदय.
शिशुः फलं खादति क्रीडति. शिशुः फलं खादित्वा क्रीडति. द बाय् plays after he eats the food, or after he eats the fruit.
Tata. Boy, na, the baby, iti, we can say. Sukshma Bhagini?
Tvam patram likhasi preshayasi. Tvam patram लिखित्वा प्रेषयसि.
उत्तमम्.
काव्य भगिनी, इज इट लिखित्वा आर लेखित्वा?
लिखित्वा.
लिखित्वा.
एंड व्हाट इज प्रेषयसि?
टू सेंड. सूक्ष्म भगिनी, अर्थं वदति वा, जानाति वा?
After writing the letter, they send it.
Astu. Tvam ityukte madhyama purushaha. Vayam prathama purushaha, uttama purushaha api patati kalu. Uttama purushaha aham vayam iti asti. प्रथमपुरुषे भवान्, भवती, सः, एषः, सा, एषा, तत्, एतत् अस्ति. मध्यमपुरुषे त्वं, त्वम् इति अस्ति, त्वम् इत्युक्ते यु बट् इन्फार्मल्, सो भवान् एण्ड् भवती इस् यु बट् फार्मल्, त्वम् इस् यु बट् इन्फार्मल्. Okay, so don't worry too much about it, but this is the meaning of it. So tvam, and then just like how for aham you say likhami, so the ending changes like that. For tvam the ending changes to the si, so likhasi and then preshayasi. Okay,
is so there any plural for tvam?
Yes, yuyam.
Yuyam
tvam yuvam yuyam.
Correct. Okay, astu. Riya bagini, प्रिया भगिनी अस्ति वा? ओके अस्तु. वेङ्कट् महोदय, वेङ्कट् महोदय अस्ति वा? अस्तु. गोपाल् महोदय,
भवती देवं नमति, प्रदक्षिणं करोति.
नमति किञ्चित् कठिनमस्ति.
नमति इस् नमित्वा भवती देवं.
ऐ एम नॉट श्योर ईदर.
प्रदक्षिणं करोति आफ्टर हैविंग प्रेड to the Lord. Bhavati is you feminine, so you circumambulated. Pradakshinam karoti.
Okay, okay. Namati, I will check that. Aham pashyami
namitva.
Namitva,
namitva eva va astu. Okay, namitva.
Natva.
Oh, kim?
It is natva.
ओ नत्वा, अस्तु नत्वा. ओके ओके,
भवती देवं नत्वा प्रदक्षिणं करोति.
ओके नत्वा, उत्तमं, धन्यवादः. प्रजा भगिनी,
सा गीतं शृणोति, नृत्यति. सा गीतं श्रुत्वा nrityati. So after hearing a song she dances.
Uttama, uttama. Arasa madya
adhyapakah adhyapakah patam patayati, prashnam pruchyati. Adhyapakah patam patitva पठित्वा प्रश्नं पृच्छति.
तत्र किं भवति?
अध्यापकर् टीचर्स् पाठं पठयति, टीचर्स् अण्ड् देन् आस्क् क्वश्चन्स्.
ओके, सो फोर् पाठयति इट्स् नाट् पठित्वा,
सारि पठिष्यति पठितुं.
अस्तु, कोऽपि
पाठयित्वा अध्यापकः पाठं पाठयित्वा प्रश्नं पृच्छति.
उत्तमम्, उत्तमम्. ओके चित्रा भगिनी, अन्तिमं.
छात्रः वाक्यं वदति, अर्थं जानाति. छात्रः वाक्यम् उक्त्वा अर्थं जानाति. Having asked, having read the sentence, the student understands it.
Uttamam, uttamam. Aham vismarati, tatra uttaram asti natva, tatra asti. Oh, kshamyatam. Aham vismarati, I didn't see that. Okay. Okay, avagacchanti va?
Bhagini, bhagini, for vadati it says uditva instead of uktva. I thought it was
Uktva api uttamam. What was the bhagini? What was the Pratima bhagini?
Uktva is right. Uditva is also right and Uktva is also right.
Okay.
Both are right.
Yeah.
These forms, from where you are validating the
particular
bhagini?
Bhagini, there is a, one is number 4 and 9, that part, patitva, patayitva. Difference?
It means patati, right? Patati means read. So, patati, patitva, patayati means to teach.
Teaching.
Patayati is to teach. Patayitva means having taught.
Having taught. Patayitva, having taught. Patitva.
Oh, the solution is down below only. So, okay. Did we lose Kavya?
Yeah, lose connection, it seems.
Yeah. These forms are in the L1 handout for some verbs. She sent the email. The form, the rupam.
It covers everything, but not, it does not cover everything. Most of it covers. Some of it is
Some of it is missing, yeah.
Yeah, there are like about maybe 30 verbs or something.
You are still on mute, Kavya.
Shamyatam, mama, internet connection na shamyat asti. Tatra patatu eva asti. Okay. ओके तत्र इतोपि अभ्यासमस्ति करोति वा न वा डु यु नीड् मोर् प्राक्टिस् वित् त्वान्तम् ओर् केन् वि मूव् आन् टु ल्यबन्तम्
वि केन् डु दिस् वन् टु
ओके अस्तु करिष्यामः हु डिड् वि स्टाप् ओके चित्रभगिनी उदाहरणं तदनन्तरं द्वितीयं वाक्यं पठति वा
छात्रः पाठं पठति टिप्पणी लिखति छात्रं छात्रः पाठं पठित्वा टिप्पणी लिखति हेविङ्ग् रेड् द लेसन् द स्टूडेण्ट् टेक्स् नोट्स्
उत्तमं
कृषकः भूमिं खनति सस्यं रोपयति कृषकः भूमिं खनित्वा Sasyam ropayati. I think it means a farmer having tilled the land, grows the plants.
Planted.
I don't know what ropayati means, but yeah.
Yep. Ropayati means to, like, to...
Plant it?
Grow, just plant it, yeah, to plant it. Okay. So... उत्तमं भगिनि अस्तु एम् बि राव् महोदय
आचार्यः पाठं पाठयति प्रश्नं पृच्छति आचार्यः पाठं पाठयित्वा प्रश्नं पृच्छति आफ्टर् हेविङ्ग् टाट् दि लेसन् हि विल् आस्क् क्वश्चन्स्
ओके ओके सचिन् महोदय
कृष्णः रथं स्थापयति अर्जुनम् उपदिशति कृष्णः रथं स्थापयित्वा अर्जुनम् उपदिशति कृष्ण positions the ratham and teaches and he teaches Arjuna upadesham
advice
kramena gachyati mahodaya so sachin mahodaya
आरक्षकः धावति चोरं गृह्णाति आरक्षकः पठित्वा चोरं गृह्णाति ओके आरक्षकः इस् द बाडी गार्ड् द पोलीस् फालोस् एण्ड् केचेस् द रोबर्
What is the quantum? That is Dhavitva.
Yep. Dhavitva. Okay. Mohan Mohdaya?
Kavihi kavyam likhati dhanam prapnoti. Kavihi kavyam likhitva dhanam prapnoti. After having written the poem, kavyam or kavyam is poem right or
poem
the poem the poet after having poem
gains money what is that gains money
dhanam okay earns money
uttama Krishna bhagini
vanarah phalam khadati dhavati Vanarah phalam khaditva dhavati. After eating the fruit, the monkey runs.
Uttama. Asa, Riya Bhagini?
Yes.
Uttama. Okay. Ashtami karotu.
Okay. Shishuhu patati rojanam karoti. Okay. Shishuhu means student.
Okay.
Baby.
Okay, baby. Yes, baby. Patati twantam kim bhavati?
Patito.
पतित्वा उत्तमम् ओके पुनः पठतु शिशुः
शिशुः पतित्वा रोदनं करोति
उत्तमम् अर्थं वदतु
द बेबि स्लीप्स्
न पतति इत्युक्ते किं
फाल्स्
फाल्स्
फाल्स् डौन् आम् रोदनम् इत्युक्ते क्रैङ्ग्
ओके वेन् द बेबि फाल्स् इट् क्रैस्
ओके आफ्टर् द बेबि
आफ्टर् द बेबि फाल्स् इट् क्रैस्
उत्तमं भगिनि ओके गोपाल् महोदय
सोरि भगिनि विच् वन्
नवमि
पितामहः कथां कथयति प्रश्नं पृच्छति पितामहः कथां कथयित्वा प्रश्नं पृच्छति पितामहः इस् वट् ग्राण्ड् फादर् हि टोल्ड् अ स्टोरि अण्ड् देन् आस्क्ड् क्वेश्चन्स्
उत्तमम् ओके वेङ्कट् महोदय
बालिका उत्क्रियते जनन् दोषयति बालिका उत्क्रियत्वा
चिन्तयामि Let me see if this one has an answer. Oh. I went too far. Okay. पद्मभगिनी जानाति वा नृत्यति नृत्वा वा
नृत्वा
नृत्वा
ओके नृत्वा
जान बालिका नृत्वा इट् जनन् तोषयति
तोषयति
जनान् तोषयति द the girl is dancing and the public is appreciating.
Yes, correct.
Toshat.
Okay. Janan, vibhakti kim?
Dvitiya.
Dvitiya vibhakti. Vachanam kim?
Bahuvachanam.
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 Achha. Bahuvachanam. Lingam kim? जनान् पुल्लिङ्गं बहुवचनं द्वितीया विभक्ति ओके इतोपि करिष्यामः वा आं वा न वा ऐ थिङ्क् देर् आर् रियाक्षन् बटन् ओके ओके ओ उत्तमम् ओके प्रतिमा भगिनी
विच् वन् शुड् ऐ रीड् जननी स्नानं करोति
आम् आम् एकादश द्वादश च
तत्र एकादश और् द्वादश जननी स्नानं करोति पाकं करोति जननी स्नानं कृत्वा पाकं करोति सो आफ्टर् हेविङ्ग् बात् मदर् मेक्स् फूड् छात्रः अध्यापकं पश्यति नमस्करोति छात्रः अध्यापकं दृष्ट्वा नमस्करोति सो हेविङ्ग् सीन् द टीचर् द स्टूडेण्ट्
सम्यक् ओके नर्सिङ्ग् महोदय कृपया म्यूट् मध्ये स्थापयतु न वदति चेत् नर्सिङ्ग् महोदय
थर्टीन्
आम् आम्
युवकः चित्रालयं गच्छति चित्रं पश्यति युवकः चित्रालयं गत्वा चित्रं पश्यति युवकः द बाय् द यङ्ग् मेन् वेण्ट् टु द थियेटर् अण्ड् सा द मूवी चित्रं पश्यति
ओके चित्रालयं
चित्रालयं इस् थियेटर् न आर् मूवी टाकीस् आर् व्हाट इस् कॉल्ड
आई थिंक इट वुड बी मोर लाइक द गैलरी और समथिंग
आर आर्ट गैलरी आर्ट गैलरी
आम् आम् चलनचित्रम् इत्युक्ते फिल्म
ओके
और मूवी चलनचित्रं सो चित्रालयं यू कैन जस्ट अस्यूम गैलरी
गैलरी ओके So the young man went to the gallery and saw the picture, Chitram.
Okay, Chitra Bhagini.
Balika Geetam Shunoti Nrityati. Balika Geetam Shrutva Nrityati. Having heard the song, the girl dances.
Okay. Amira Modya.
बालकः जननीं स्मरति रोदनं करोति बालकः जननीं स्मृत्वा रोदनं करोति दट् इस् दि बाय् रिमेम्बर्स् हिस् मदर् अण्ड् स्टार्ट्स् क्रैङ्ग्
उत्तमं तत्र स्मृत्वा अस्ति उत्तमम् ओके सचिन महोदय
त्वं दुग्धं पीबसि क्रीडसि त्वं दुग्धं पीत्वा क्रीडसि आफ्टर् हेविङ्ग् आफ्टर् ड्रिङ्किङ्ग् युर् मिल्क् यु केन् प्ले
ओके उत्तमं मोहन् महोदय
शिष्यः प्रश्नं पृच्छति उत्तरं जानाति शिष्यः प्रश्नं कृत्वा उत्तरं जानाति
उत्तमं पृच्छति पृष्ट्वा
पृष्ट्वा ओके पृष्ट्वा ओके एण्ड् वन् क्वशन् पश्यति आफ्टर् सीङ्ग् सो पृष्ट्वा
पृच्छति मीन्स् टु आस्क् सो आफ्टर् आस्किङ्ग् पृष्ट्वा
पृष्ट्वा
ओ ओ दृष्ट्वा पश्यति दृष्ट्वा
ओके पश्यति दृष्ट्वा पृच्छति पृष्ट्वा
ओके अर्थं वदति वा डिड् यु से द मीनिङ्ग्
So, Shishyaha, the child, after asking a question, no, after...
Shishyaha is student.
Student.
Shishyaha.
Uttaram janati itukte?
Uttaram knows the answer.
Uttaram. Samyak. Okay. Sukshma Bhagini?
भक्तः देवं नमति प्रार्थनां करोति भक्तः देवं नत्वा प्रार्थनां करोति आफ्टर् प्रेयिङ्ग् टु गाड् भवती रादर् आफ्टर्
प्रेयिङ्ग् अपि
ओके आफ्टर् या आफ्टर् गोयिङ्ग् डौन् टु गाड् The devotee prays.
Uttam, Uttam. Samyaktaya smarati, Uttam. Okay, Riya Bhagini?
Yes, Bhagini. The 19th one or the 18th one?
19th. Do okay. 19 and 20.
Okay. Yuvakah Durbhyasam. Bhagini, what's this word?
Tyajati.
Tyajati Sajjanah Bhavati. Bhavati.
युवकः इत्युक्ते किं
यङ्ग् गर्ल्
यङ्ग् बाय् युवकः पुल्लिङ्गम् अस्ति खलु उत्तमं दुरभ्यासं दुरभ्यासं जानाति वा
नो
ओके कः जानाति बेड् हेबिट्
बेड् ओके The young boy and
Tyajati kim?
Leave.
Having sacrificed. No,
having left the bad habits, he becomes a good man.
Okay, leave na to remove iti.
To give up?
Yeah, or to give up.
To discard. Yeah,
sacrifice.
No, give up.
Okay.
त्यजति क्वान्तरूपे किं भवति ओके
त्यक्त्वा युवकः दुर्भ्यासं त्यक्त्वा सज्जनः भवति
ओके अर्थं वदतु
द यङ्ग् बाय् gives up his bad habits and becomes a good man.
Uttam, bahu uttam. Astu. Vimshati api karoto.
Balakah kridanti gruham gachanti. Is it kriditva?
Uttamam, samyak.
So balakah kriditva gruham gachanti. After playing, the boy goes home.
The boys. Bahuvacham.
The boys go home. The boys go home.
Bahu uttamam bhagini. Bahu uttamam. Okay. Avagachanti kalu tvantam. Astu. Lyabantam karishyamaha. Okay. Lyabantam. Okay. Pratham vakyam kaha vivaranam karoti. Kaha va kava.
अहं प्रयत्नं करोमि.
अस्तु, करोतु महोदय.
बालकः उत्तिष्ठति. द बॉय गेट्स अप. देवं नमति. हि बोज़ डाउन टू द गॉड्स. बालकः उत्तिष्ठ्य.
न न तत्र किम् अस्ति?
उत्तिष्ठति यमन्तं विनि उत्तिष्ठ
तत्र उत्थाय अस्ति.
बालकः उत्थाय देवं नमति. दट् इस् हि गेट्स् अप् अण्ड् बोज़. ऐ डिडन्ट् सी दट्. सारी.
ओके, चिन्ता मास्तु. गुड्, उत्तमम्. ओके, द्वितीयं कः विवरणं करोति?
ऐ केन् रीड्.
अस्तु, करोतु नारसिंह महोदय.
बालकः गृहं प्रविशति. हस्तौ प्रक्षालयति. सो बालका गृहं प्रविशति. हि एण्टर्स् द हौस्. वाशस् द हेण्ड्. सो बालकः गृहं प्रविश्य हस्तौ प्रक्षालयति.
ओके, उत्तमम्. तत्र केचन वाक्यानि सन्ति, परन्तु लेट्स् लुक् एट् दिस् वन् चार्ट्. ओके, सो तत्र पश्यतु, नीत्वा इति अस्ति. नीत्वा क्रियापदं किम् अस्ति?
नयति.
नयति. नयति इत्युक्ते किम्?
क्यारि.
क्यारि.
क्यारि. आयोजयित्वा, आ प्लस् नीत्वा आनीय. अवगच्छति वा? नीत्वा आनीय. आ इति उपसर्गः अस्ति. उपसर्गः इत्युक्ते प्रीफिक्स्. ओके, तदनन्तरं हृत्वा अस्ति. हृत्वा कोऽपि जानाति वा क्रियापदम्?
Hanan. To kill.
Smru.
The... What question. Is it, Bhagini? What was it, Pratima Bhagini?
The Kriyapad is Smru.
Smru.
Smrutva.
We're Hrutva. We're doing Hrutva.
Hrutva. Ru. Ru.
Hrutva.
Oh.
Ru. So, then afterwards it becomes...
ओके, हरति. हरति अर्थं किम्?
टेक्स् अवे.
ओके, टेक्स् अवे. किल्स् अपि इति अहं चिन्तयामि. संस्कृते किम् अस्ति इति तुमुन् प्रत्ययः इति वदति खलु. सो तुमुन् कम्स् अट् द एण्ड्, रैट्? सो तुमुन् प्रत्ययः. प्रत्ययः इस् सफिक्स्.
उपसर्गः.
ओके, हृत्वा आ उपसर्ग उपयुज्य आहृत्य आहृत्य इति भवति. पश्यतु य य य इति अन्तिमम् अस्ति. सो स्मृत्वा स्मरति, टु रिमेम्बर् स्मरति, स्मृत्वा वि उपसर्गः उपयुज्य स्मृत्वा विस्मृत्य इति भवति. वि प्लस् स्मृत्वा विस्मृत्य.
What does vismritya mean? Forgetting?
Remember. Remember? Forget,
sir? Forgetting.
Forgetting.
Aham vismarati means I forgot. Aham vismarami means I forgot.
And what does ahritya mean?
Ahritya.
Who is leaving?
Harati means to steal. Harati. Spoken Sanskrit says to steal.
Okay, to steal.
And what is hara? Hara is also steel and ahritya is also steel. Both are steel.
No, harati means to
take away.
So, yeah, they're synonyms, I guess.
The gerund having stolen or having taken?
Okay, so having taken is
rutva is taken, but ahritya is stolen.
Okay.
Can I
yes, there's a big difference between taking and stealing.
Yeah.
Okay, so like that, it goes on.
One question.
Bhagini, I think Gopal Mahadeya has some questions. Mohan Mahadeya.
Vadatu, Mohan Mahadeya?
You can go to the previous screen, the boy washing his, comes home and washing his hands. So yeah, yeah, here, if you go down. So, can you go down some more? So, further down, yeah, yeah. So, Balakaha Gruham Pravishyati Hasto Prakshalayati. Balakaha Gruham Pravishya Hasto Prakshalayati. What is the meaning of that? So, it is only after he comes home. So, why not Pravishtva.
Okay, because remember the Pra Visargaha is there. I mean, Pra Upasargaha is there.
Yeah.
Or Visargaha. So, because there's the Upasargaha, you have to change the ending to Ya.
What is the meaning?
So, to enter. So, Vishati. So, Vishati ityukte kim kaha janati?
See, Visha is also to enter, and Pravisha is also Pesh, enter.
Like Pravesh.
Okay, so Vishati, Pravishati, they're both synonyms. So, but since there's a Upasargaha, there's the Pra Upasargaha, you have to add the Ishya at the end. If it only says Vishati, then you can say whatever it becomes, whatever vitva or whatever it becomes. You can add the twanta if it was vishati only, but since there's the pra, you say pravishya.
What is the English meaning?
Enter.
To enter.
Enter.
Okay, no, the sentence, balakaha
gruham. After he enters the house, he washes his hands. After he enters the house, he washes hands.
Why do we need another word? Pravishtva.
No. Because pra is upasarga, you cannot have tvanta, it has to be yabantam. Oh. Without pra, you can have tvantam. With pra, it has to be yabantam.
With pra,
it whenever there is upasarga, it has to be yabantam.
Okay.
Pra,
yeah.
Pra is upasarga.
Okay, got it. Thank you.
Okay, uttama.
So, Bhagini, both mean the same, right? The Tvantam and the Lyabantam, it's only that because of the Upasarga, we are changing the formation of the word, right?
Yes, in this case, they mean the same. In this case.
Okay.
But, for example, if you have Gacchati and Agacchati, for Gacchati, what does it become?
Gatva.
Gatva.
For Agacchati?
I Upasarga, so it will be Agacchati.
Agatya. And then we know that there's a difference in the meaning between Gacchati and Agatya.
Okay.
I mean, gacchati and agacchati.
Correct.
Yes, gacchati is to go and agacchati means to come. So some of them, there will be big changes. Some of them, like
maybe
small, change. Subtle changes. So,
okay.
Some may not change.
Okay. So let's do some, oh, it's 10:20. Okay, so Karoti va, should we do some practice on Lyabantam or should we move on to Vibhakti Vallari?
No, we can do Lyabantam.
We'll do the Lyabantam.
Okay, okay, so Abhyasam. Okay, Etam Kinchit Karom. Okay. Upasargah. ओके तत्र अस्ति उदाहरणम् उदाहरण उदाहरणानुगुणं ल्यबन्तरूपाणि लिखन्तु ओके योजयतु आ प्लस् गत्वा आगत्य इदानीमपि वि जस्ट् इट् सो गच्छति गत्वा देन् आगत्य द्वितीयम् आ प्लस् नीत्वा आनीय ओके गोपाल् महोदय तृतीयं करोति वा
आगत्वा आगत्य परिशीलयित्वा परिशीलयित्य
परिशीलयित्य
परिशील्य न भगिनि
ओ क्षम्यतां परिशील्य
परिशील्य
परिशील्य परिशील्य इत्युक्ते किम्
टु एक्सामिन् ओर् हेविङ्ग् एक्सामिन्
आम् एक्सामिन् सो परिशील्य ओके
व्हाट डस् आनीय मीन्
टु ब्रिङ्ग्
ब्रिङ्ग्
टु ब्रिङ्ग् ओके वेङ्कट महोदय
नम्बर् फोर् सा सा हत्वा सा हत्वा
कः जानाति संहृत्य अस्तु वा ओके संहृत्य ऐ थिङ्क् मीन्स् टु इफ् भारती मीन्स् टु टेक् अवे देन् संहृत्य मीन्स् टु लैक् गेदर् पुट् टुगेदर् प्रोबब्लि रैट् इति अहं चिन्तयामि ओके संहृत्य उत्तमं महोदय ओके पञ्चमी तत्र अस्ति प्र प्लस् नत्वा प्रणम्य प्रणम्य ओके प्रतिमा भगिनी षष्टि
भूत्वा इस् अनुभूय
निराकृत्वा
निराप्लस् कृत्वा निराकृत्य
ओके अर्थं वदति वा
चमेण्ट् एक्ट्
या सो आफ्टर् साल्विङ्ग्
ओके सम्यक् आफ्टर् साल्विङ्ग् उत्तम ओके सप्तमी नरसिंह महोदय
सम् प्लस् गृहीत्वा
म्यूट् मध्ये स्थापयतु कृपया ध्वनिः स्थापयतु
सम् प्लस् गृहीत्वा इस् संहृत्वा
सम् ल्यबन्तम् उपयुज्य करोतु
सङ्गृहीत्वा
त्वा न त्वा न न न ल्यबन्तं ल्य य यत् एण्ड् विथ्
य ओके देन् इट् इस् सम् गृहीय
उत्तमं सङ्गृहीय
सङ्गृहीय
वैट्
गृहीत्वा मीन्स् होम्ली
samgrihya. Samgrihya dikte to
grihya is what grihitva
is grihitva is to hold or to take. So samgrihya means to
hold. Okay.
Sangrihya,
okay.
Having collected. Sangrihya.
Okay. Chitra Bhagini?
Abhi plus Nanditva, Abhinanditya. To praise.
Abhinandya.
Abhinandya.
Yavantam.
Abhinanditya.
Abhi
Nandya Nindya
Niditva
Nanditva
Abhinandya
Abhinandya
Okay Abhi Abhinandya iti aham chintayami. I think it's Abhinandya too.
Okay, Abhinandya.
Okay, Abhinandya iti kim
praise.
To praise. Uttamam. Yeah. Ninditva itikte kim?
Ninditva means to scold.
To scold. So, tatra artham binnam asti. The meaning is this.
Antonym.
Ninditva is condemn.
Amiram Madhya?
Criticisms?
Yeah. Anu plus bhutva. Anubhutya.
Anubhutya. Anubhuya, correct.
Anubhuya. Okay. Artham
Experience.
That's the Sachin Modya.
Pari plus Tyaktva.
Parityaktya. Okay. Parityaktya. Okay.
Yaktava.
Parityakta artham janati va?
Sacrifice?
Okay.
Sacrifice?
Give up.
Sacrifice.
Sacrifice.
Isn't it parityajya?
Parityakta, like to let go also. Or abandon.
It is not sacrifice. Sacrifice means that you are sacrificing, whereas here it is giving up.
Yeah, more like leaving it or abandoning.
Yeah. Like in Kasi, you leave.
Parityajya, Bhagini, isn't it parityajya?
Yeah, it is parityajya.
Is parityajya?
Yeah, parityajya.
Oh, parityajya. Okay, yeah. Parityajya. Okay, uttam, parityajya. Astu. So for sake of time, I'm going to say, is it okay if I give the rest of this for homework? Just to complete this page for homework?
Yes.
Uttam. So, and then if you can, you can find the meanings too.
Okay.
So we can be better prepared. Okay?
Okay.
So, and Chinta Master, don't worry about memorizing these verbs or anything. These are just for, you know, your knowledge. Okay? Astu. Vibhakti Vallari Karishyamaha. Okay. So, Putaha Saptamam Asi. Okay. On page 6, tatra ekam koshtakaha asti. Ekaha purushaha vivaranam karoti va. Can one person explain the box, the chart?
Oh, okay.
It is pundlingam, एकवचनं बहुवचनं स्त्रीलिङ्गम् एकवचनं बहुवचनं नपुंसकलिङ्गम् एकवचनं बहुवचनं अकारान्तः आकारान्तः ईकारान्तः
अस्तु ओके अन्ते किं किम् अस्ति विभक्ति किं
द्वितीयविभक्ति
द्वितीयविभक्ति सो अकारान्तः पुल्लिङ्गः एकवचने बालम् अस्ति बालः बालं बहुवचने किमस्ति
बालान्
बालान् आकारान्तः स्त्रीलिङ्गे एकवचने किम् अस्ति
बालिकां
बालिकां
बालिकां बहुवचने
बालिका
बालिकाः समानमेव भेदः नास्ति देयर्स् नो डिफरेन्स् ओके ईकारान्तः स्त्रीलिङ्गे एकवचने
लेखनीं
लेखनीं बहुवचने
लेखनीः
ओके लेखनीः बहुवचने भेदः अस्ति डिफरेन्स् ओके नपुंसकलिङ्गे एकवचने
पुस्तकं
पुस्तकं बहुवचने
पुस्तकानि
पुस्तकानि
पुस्तकानि समानमेव देयर्स् नो डिफरेन्स् ओके अस्तु ओके तत्र अस्ति तत्र सूचना अस्ति रामः यत् जानाति तत् चक् चिह्नेन यत् न जानाति तत् एक्स् मार्क् चिह्नेन च उपरि सूचितं तथैव सः यत् आनीतवान् तत् चेक् मार्क् चिह्नेन यत् न आनीतवान् तच्च चिह्नेन च सूचितम् एतादाधारेण वाक्यानि लिखत ओके सो वि जस्ट् हाव् टु मेक् द सेण्टेन्सेस् यूसिङ्ग् दीस् वर्ड्स् अण्ड् द चेक् मार्क् सो चेक् मार्क् इत्युक्ते आम् अस्ति एक्स् मार्क् न इति अस्ति ओके प्रथम उदाहरणमस्ति रामः वेदान् जानाति वेदाः अस्ति वेदाः बहुवचने द्वितीयविभक्ते वेदान् वेदान् जानाति कृष्णः ओ च रामः वेदान् जानाति ओके अवगच्छन्ति वा प्रश्नः अस्ति वा ओके अस्तु सचिन् महोदय द्वितीयं करोति वा
मन्त्राः बहुवचनं
आम् आम्
कृष्णः मन्त्राणि शृणोति
शृणो ओके अस्तु तत्र जानाति क्रियापदमस्ति शृणोति अपि उत्तमम् उत्तमम् मन्त्राः किं भवति महोदय
मन्त्रान्
सचिन् महोदय किमर्थं मन्त्रान् वै इस् इट् मन्त्रान् उत्तमं पुल्लिङ्गं बहुवचनं उत्तमम् ओके मोहन् महोदय
रामः शब्दान् जानाति
न
जानाति वा न जानाति वा
ओ न जानाति सारि रामः शब्दान् न जानाति
न जानाति उत्तमम् उत्तमम् अस्तु कृपया म्यूट् मध्ये स्थापयतु नरसिंह महोदय धन्यवादः ओके सूक्ष्मा भगिनी
रामः आपणान् ऐ फोगाट् वाट् इस् आपणा
स्टोर्
शाप् स्टोर् ओके रामः आपणान् गच्छति रामः गोस् टु द स्टोर् टु द स्टोर्स्
ओके उत्तमं गच्छति उत्तमं परन्तु उपरि जानाति इति क्रियापदमस्ति
ओके ओके सो वी हाव् टु यूस् जानाति ओके ओके रामः आपणान् जानाति राम नोस् द स्टोर्स्
उत्तमं उत्तमं सम्यक् ओके रिया भगिनी प्रिया भगिनी अस्ति वा अस्तु गोपाल् महोदय
सारि भगिनि वट् डस् दिस् क्रास् मीन्
न जानाति
ओके
पञ्चमी विज्ञानवार्ताः
विज्ञानवार्ता रामः विज्ञानवार्तां न जानाति
उत्तमं परन्तु विज्ञानवार्तान् न न इति अन्तिमस्ति
राम डस् नाट् नो सैण्टिफिक् न्यूस्
सम्यक् ओके वेङ्कट् महोदय
रामः चर्चा न न जानाति
उत्तमं सम्यक् न जानाति
रामः डस् नाट् नो द डिस्कशन्
उत्तमम् उत्तमं महोदय प्रतिमा भगिनी
रामः चर्चान् न जानाति
ओके कृतवन्तः वी आल्रेडी डिड् दैट वन् काव्यानि
या रामः काव्यानि जानाति
ओके उत्तमं नरसिंह महोदय
नेक्स्ट् रामः शास्त्राणि जानाति
ओके उत्तमं चित्रा भगिनी
रामः श्लोकाः न जानाति राम डस् नाट् नो श्लोकास् श्लोका इस् स्त्रीलिङ्गं बहु श्लोकाः स्त्रीलिङ्गं बहुवचनं It remains the same.
Why is in Shastrani, it is ni and not ni?
Bhavan, what is the name of the
name? Because Rai is there, no? That is why Nai.
Ra, Tatra is the
name. Okay, Dhanyavada.
Okay. Shlokaha, Shlokaha Pullingam asti.
Pullingam.
Shlokan.
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 रामः श्लोकान् न जानाति राम डस् नाट् नो श्लोकास्
ओके सम्यक् अमीरा महोदय
भगिनी वन् क्वश्चन् इदं चर्चा इस् इट् चर्चः दट्स् वै इट् बिकम् चर्चा इस् इट् चर्चा
ओ रैट् करेक्ट् चर्चा स्त्रीलिङ्गम्
सो इट् इस् चर्चाः ओन्लि रैट्
यप् चर्चाः चर्चाः उत्तमं भगिनि ओके अमीरा महोदय
रामः सदाचाराः जानाति रामा नोस् दि गुड् हेबिट्स्
ओके गुड् अण्ड् सेम् थिङ्ग् वित् विज्ञानवार्ताः वार्ता इस् स्त्रीलिङ्गम् सो विज्ञानवार्ताः क्षम्यतां मम दोषः सो विज्ञानवार्ताः विज्ञानवार्ताः स्त्रीलिङ्गम्
अण्ड् सदाचारः सदाचारान् रैट्
इति सदाचारः सदाचारः
सदाचारान्
सदाचारान् रामसदाचारान् जानाति जानाति.
ओके उत्तमम्. ओके इतः वाक्यद्वयं करोतु. सो फोर् द रैट् सैड् टु टु सेण्टेन्सेस् अस्तु वा? ओके सचिन् महोदय
स्यूतः
बेग्
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 रामः स्यूतं जानाति.
ओके स्यूतम् एकवचनमस्ति, बहुवचने?
रामः स्यूतानि
स्यूतान् स्यूतान् एव
स्यूतान्
लिङ्गं किं महोदय? लिङ्गं किं
लिङ्गं
पुल्लिङ्गं
पुल्लिङ्गं पुल्लिङ्गम् अस्ति. स्यूतः
स्यूतः
स्यूताः
ग्रन्थ ग्रन्थाः रामः ग्रन्थं जानाति.
ग्रन्थवचनमस्ति
ग्रन्थ एकवचनं
बहुवचने
ग्रन्थाः
ग्रन्थान् आनीतवान्
पास्टेन्स.
ओके कृपया म्यूट् मध्ये स्थापयतु, अहं सचिन् महोदय वदामि. ओके सो रिमेम्बर् रामः बिकम्स् रामं, रामाः बिकम्स् रामान्. स्मरति वा महोदय? सो लैक् देट् ग्रन्थः ग्रन्थम् उत्तमम् उत्तमतया वदति. ग्रन्थाः किं भवति?
ग्रन्थान्
ग्रन्थान् उत्तमं ग्रन्थान् पुल्लिङ्गम् एव ग्रन्थान्. स्यूताः
स्यूतान्
स्यूतान् उत्तमम् अस्तु. पुनः वाक्यानि वाक्यद्वयं वदतु. उत्तमम् द्वादश
रामः ग्रन्थान् जानाति.
ओके आनीतवान् अपि.
आनीतवान्
आनीतवान् मीन्स् टु
आनीतवान् इस् द वर्ब्.
यस् आनीतवान् इस् द वर्ब् that we're using for all of it.
Ramah sutah sutan anitvan Ramah granthan anitvan anitvan
uttam samyak. Okay avagachati va?
Not anitvan, it is anitavan.
Anitvan
good. Okay Mohan Modya,
the word is
नश्रुणोमि महोदय. ऐ केण्ट् हियर्. केन् यु स्पीक् लौडर्? किञ्चित् उच्चैः वदतु.
सुधाखण्डाः. सो सुधाखण्डाः रामः सुधाखण्डान् आनीतवान्. हा न आनीतवान्
सम्यक्.
देन् पुस्तकानि रामः पुस्तकाः न आनीतवान्.
न न नपुंसकलिङ्गे समानमेव.
ओके सो रामः पुस्तकानि न आनीतवान्.
सम्यक् सम्यक् उत्तमं महोदय. ओके सुक्ष्मा भगिनी.
रामः यानपेटिकाः न आनीतवान्. एण्ड् द नेक्स्ट् वन् इस् रामः अङ्कनीः आनीतवान्.
सम्यक् उत्तमं उत्तमं भगिनि. रिया भगिनी
यस् भगिनि
ओके अन्तिम त्रयं करोतु लास्ट् त्री
ओके घट घट हौ डु यु स्पेल् दिस् वर्ड्
घट्यः
ओके घट्यः
अस्तु गत्यः द्वितीयाविभक्ते बहुवचनं किं भवति
घट्यं
न लेखन्यः
लेखट्याः
द्वितीय लेखन्यः ओ ऐ डोण्ट् थिङ्क् वि डिड् लेखन्यः सो ओके सो डु लेखन्यः फस्ट् प्रथमलेखन्यः करिष्यामः सो द फास्ट् वन् सूक्ष्मभगिनी सर् अङ्कन्यः बिकम् अङ्कनीः
सो लेखन्यः लेखनीः
उत्तमं कः आनीतवान् हू ब्राट् कः आनीतवान् रामः वा कृष्णः वा रामः रामः लेखनीः
लेखनीः
किं करोति
आनीतवान्
ओके आनीतवान् परन्तु तत्र एक्स् मार्क् अस्ति तदर्थं न आनीतवान् उत्तमं वा अस्तु ओके घट्यः अपि करोतु
ओके घट्यः घटिः
उत्तमं
रामः घटिः आनीतवान्
उत्तमं रामः घटीः आनीतवान् सम्यक् भगिनि बहु सम्यक् ओके गोपाल् महोदय
सोरि विच् वर्ड्
कर्तव्यः
कर्तर्यः सो वाट् इस् कर्तर्यः सिज़र्स् नारायणः कर्तर्यः न आनीतवान्
कर्तर्यः बहुवचने द्वितीयविभक्ते किं भवति
कर्तरीः
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 कर्तरीः नारायणः कर्तरीः न आनीतवान्
सम्यक् ओके विंशति
कर्तर्यः एकवचनं बहुवचनं
कर्तर्यः बहुवचनं कर्तरी कर्तर्यः
धन्यवादः
ओके गोपाल् महोदय पत्रिकाः अपि करोतु
नारायणः पत्रिकाम् आनीतवान्
ओके पत्रिका लिङ्गं किं पत्रिकाः लिङ्गं किं
पत्रिकाः स्त्रीलिङ्गं बहुवचनं पत्रिका पत्रिकाः
ओके उत्तमं पत्रिकाः पत्रिकाः सम्यक्
पत्रिका पत्रिका
प्रश्नमस्ति वा एनी क्वश्चन्स्
नो
अस्तु अस्तु ओके सो जस्ट् फार् टु मिनिट्स् किञ्चित् झटिः करिष्यामः Just a motion. So I have just some flashcards. So they're all in Ekavachanam, but just pretend that they are all in Bahuvachanam. You just unmute and tell me the Dutiya Vibhakti of the word in Bahuvachanam. So Vriddhaha. Vriddhaha.
It's the same.
Okay.
Vidyut Deepan.
Vidyut Deepan.
Gajan.
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 Sorry, this is the Dvitiya Vibhakti.
Ah, Dvitiya Vibhakti. Dvitiya Vibhakti Bahuvachanam.
Upadhanani.
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 सम्मार्जनीहि
उत्तमम्
द्वाराणि
रथान्
लोकयानानि
वनानि
सूचीः
अहं चित्रभगिनी एव शृणोमि
महिलाः
जलनालिकाः
नदीः
करदीपान्
निधानिकाः
बालिकाः अस्तु चित्रभगिनी न वदतु अहं न शृणोमि कोऽपि
शाखाः
उत्तमम्
वातायनानि
Plural or Dvitiya Vibhakti?
Bahuvachanam Dvitiya Vibhakti.
Sanganakani.
Sanganakani. Napumsakalingam. Sanganakani.
So the plural and Bahuvachanam Dvitiya Vibhakti, there is no change.
For Napumsakalingam, there is no change.
So, Sanganakani.
Sanganakani, Sanganakani.
They bring the computer. Yeah? We say Sanganakani Anayatu.
Correct.
So there is no Sanganakani in or anything. Sanganakani Anayatu.
Yes, correct. Okay, Asu. Chitra Bhaini, Idani Madhatu.
Yuvat Ihi.
युवतीहि
कन्दुकान्
उत्तमम् अस्तु ओके उत्तमं प्रश्नः अस्ति चेत् कक्षायाः अनन्तरं वदतु न चेत् चित्राभगिनी शान्तिमन्त्रं वक्तुमिच्छति वा
ॐ सर्वे भवन्तु सुखिनः
सर्वे
सन्तु
सर्वे भद्राणि पश्यन्तु
क्षम्यताम्।